आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् विभिन्नासु क्रीडासु भारतस्य प्रदर्शनं 14-2000 वर्षात् निरन्तरं समेधते। श्रीमोदी आभासीयमाध्यमेन वाराणस्याः डॉ. सम्पूर्णानन्द क्रीडा प्रांगणे 270 तमायाः राष्ट्रिय वॉलीबॉल स्पर्धायाः उद्घाटनम् अकरोत्। अमुना प्रोक्तं यत् भारतं 33-2000 तमे वर्षे ओलम्पिक क्रीडायाः आयोजनाय सिद्धतायै प्रयासरतो वर्तते।
साल 2014 के बाद से अलग अलग खेलों में भारत का प्रदर्शन लगातार बेहतर हुआ है। हमें बहुत गर्व होता है जब जैन जी को खेल के मैदान पर तिरंगा फहराते देखते हैं। बीते दशक में स्पोर्ट्स को लेकर सरकार और समाज दोनों की ही सोच में बदलाव दिख रहा है। सरकार ने स्पोर्ट्स का बजट काफी ज्यादा बढ़ा दिया है। आज भारत का खेल मॉडल एथलीट सेंट्रिक हो गया है। 2030 के कॉमनवेल्थ गेम्स भी भारत में ही होने जा रहे हैं। भारत पूरी मजबूती से 2036 ओलंपिक की मेजबानी के लिए भी तैयारी कर रहा है।
सः अवदत् यत् तस्य सर्वकारः राष्ट्रिय क्रीडा प्रशासन अधिनियमः खेलो भारत नीतिः 20-25 इत्यादीनि क्रीडायाः क्षेत्रे अनेकानि परिवर्तनानि परिष्कारांच आनयति। प्रधानमन्त्री अवोचत् यत् देशस्य क्रीडा प्रतिमानम् अधुना क्रीडक केन्द्रितं वर्तते, अतः 14-2000 वर्षात् परं क्रीडकानां सफलतायां महती वृद्धिः अभवत्। क्रीडायाः क्षेत्रे स्वसर्वकारस्य प्रयत्नान् अधोरेखयन् श्रीमोदी अवोचत् यत् सर्वकारः विविधक्षेत्रेषु विषयेषु च कार्यं कुर्वन् अस्ति, येषु प्रतिभायाः अभिज्ञानं, वैज्ञानिकप्रशिक्षणं, पौष्टिकभोजनं प्रदातुं, पारदर्शकं चयनं च अन्तर्भवन्ति। ह्यः आरभ्य जनवरी मासस्य 11-दिनाङ्कपर्यन्तम् आयोज्यमानायाम् 8-दिवसीय प्रतियोगितायाम् आदेशात् सहभागिता दृश्यते, यत्र विविधराज्यानां संस्थानां च प्रतिनिधित्वं कुर्वताम् 58 दलानां भागरूपेण 1000-तोप्यधिकाः क्रीडकाः भागम् अधिगृह्णन्। वेनेजुएला देशे सद्यः एव घटितानां घटनानां विषये भारतं गभीरां चिन्तां प्रकटयति। विदेशमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् तत्रत्य स्थितिः निकटतया निरीक्षिता अस्ति। वेनेजुएला देशस्य जनानां कल्याणाय सुरक्षायै च भारतं स्वसमर्थनं पुनः दृढीकृतवान्। नवदिल्ल्या संवादस्य माध्यमेन क्षेत्रे शान्तिं स्थिरतां च सुनिश्चेतुं विषयान् शान्तिपूर्वकं समापयितुं सम्बद्धेभ्यः सर्वेभ्यः आवयत्। भारतीय ऋतुविज्ञान विभागेन आगामि 2 दिवसेषु दिल्ली, हरियाणा, चण्डीगढ़, ओडिशा, पंजाब, पूर्व उत्तर प्रदेश, मध्य प्रदेश राज्येषु अतिनिहारस्य पूर्वानुमानं प्रकटितम्। अतिनिहाराच्छादनात् देशस्य विभिन्नेषु भागेषु अनेकानां रेलयानानाम् आवागमनं बाधितम् अभवत्। भारतीय रेल विभागानुसारं 11 रेलयानानि घण्टाद्वयेभ्यः अपि अधिकाः विलम्बिताः सन्ति। भारतीय तट रक्षकस्य प्रथमं स्वदेशीय परिकल्पितः निर्मितः च प्रदूषणनियन्त्रः कुम्भः समुद्रप्रतापः अद्य गोवाराज्ये रक्षामन्त्रिणा राजनाथसिंहेन सञ्चालितो भविष्यति। अस्मिन् 60% अधिकाः स्वदेशीय पदार्थाः सन्ति। समुद्रीय प्रदूषणनियन्त्रणनियमान् प्रवर्तयितुं समुद्रीयविधिं प्रवर्तयितुं च भारतस्य विशेष आर्थिकक्षेत्रस्य रक्षणार्थं च एतत् महत्वपूर्णं स्थानं भजते। इति वार्ताः।